संस्कृतं देवभाषा अस्ति। अस्य अर्थ देवानां भाषा, पुनः भाषानां मध्ये देव। द लैंग्वेज ऑफ गॉड्स और द लैंग्वेज इटसेल्फ इज अ गॉड amongst the languages. So its structure and sound system, asya gathanam, asya uccharanam, devatvam janayati. It manifests the God in its pronunciation and in its vibration. Yatra kutrapi संस्कृतस्य उच्चारणं भवति तत्र देवत्वस्य प्रकाशः भवति। एंड देव इट्स एसेंशियल मीनिंग इज लाइट नॉलेज। सो संस्कृत इन एनी फॉर्म इज लाइट इज आनंद इज द गॉड।